एष रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम्। प्रवाचकः उपेन्द्र दहालः। प्रतिनिधिसभायाः अन्तर्गतानां दशानां संसदीय समितिनां सभापतिनां कृते ह्यो मनोनयनं पञ्जीकारितं वर्तते। सार्वजनिक लेखा समितेः सभापतये नेकपा एमाले दलस्य सांसदेन ऋषिकेश पोखरेलेन, महिला सामाजिक विषय समितेः सभापतये किरण कुमार सायेन च मनोनयनं पञ्जीकारितं वर्तते। विधि न्याय मानवाधिकार समितेः सभापतये नेकपा माओवादी केन्द्रस्य सांसदेन विमला सुवेदिना, शिक्षा स्वास्थ्य सूचना प्रविधि समितेः सभापतये नेकपा एकीकृत समाजवादी दलस्य सांसदेन भानुभक्त जोशी इत्यनेन च मनोनयनं पञ्जीकारितमस्ति। नेपाली कांग्रेस दलस्य सांसदेन रामहरि खतिवडा विदेन, राज्य व्यवस्था सुशासन समितेः सन्तोष चालिसे विदेन, अर्थ समितेः आर्जु राणा इत्यनया, कृषि सहकारी प्राकृतिक स्रोत समितेश्च सभापति पदाय मनोनयनं पञ्जीकारितं वर्तते। अन्तर्राष्ट्रिय सम्बन्ध पर्यटन समितेः सभापतये जनता समाजवादी दलस्य सांसदेन राजकिशोर यादवेन, पूर्वाधार विकास समितेः सभापतये राष्ट्रिय प्रजातन्त्र दलस्य सांसदेन दीपक बहादुर सिंहेन च मनोनयनं पञ्जीकारितं विद्यते। एवमेव उद्योग वाणिज्य श्रमोपभोक्तृ हित समितेः सभापतये जनमत दलस्य सांसदेन अब्दुल खान इत्यनेन, राष्ट्रिय स्वतन्त्र दलस्य सांसदेन गणेश पराजुल इत्यनेन च मनोनयनं पञ्जीकारितं वर्तते। समितिनां सभापतिनां निर्वाचनम् अद्य दिवा त्रिवादने सम्बद्ध समितेः सभाकक्षे सम्पद्यमानं वर्तते। राष्ट्रिय सभाया गतदिवसीयोपवेशे विधि न्याय संसदीय विषय मन्त्री धनराज गुरूङ विलोपितानां व्यक्तिनाम् अनुसन्धान सत्यनिरूपण मेलायोगस्य कार्यावधेः वर्धनत्वेन क्रियान्वितम् आदेशं प्रास्तोत्। उपवेशे विधायन व्यवस्थापन समितेः सभापति जयन्ती देवी राई संविधानस्य अनुसारेण निर्माणाय अवशिष्टानां विधिनाम् एतद् विक्रमाब्दीयम् अध्ययन प्रतिवेदनम् विधायन व्यवस्थापन समितेः निर्देशन क्रियान्वयनयोः एतद् वैक्रमाब्दम् अनुगमन मूल्याङ्क अध्ययन प्रतिवेदनम् च प्रास्तौत। तत्पूर्वम् उपवेशस्य विशेष समये सांसदाः शान्तेः एकतायाः जातीय सद्भावस्य च विकार सर्जनात्मकानां गतिविधीनां निरोधनाय समस्यायाः समाधानाय च सर्वकारस्य ध्यानम् आकर्षयन् सांसदाः कोशी प्रदेशे जायमानैः गतिविधिभिः जातीय एकता सद्भावयोः विशृङ्खलन कार्यं जायमानमस्तीति भासमाणाः अत्र सर्वकारेण संवेदनशीलतया समस्यायाः समाधानाय प्रयतनीयमिति बलं प्रादुः। राष्ट्रियसभायाः अपरोपवेशः अस्यैव भाद्रस्य अष्टादशे दिवसे सोमवासरे दिवा एकवादने वस्ता। ललिता निवासस्य सर्वकारीय भूमेः अनियमिततायाः प्रकरणे काष्ठमण्डप जनपद सर्वकारीयाधिवक्त कार्यालयेन ह्य काष्ठमण्डप जनपद न्यायालये कृत्रिम कार्यापराधम् आधृत्य न्यायिक प्रकरणं पञ्जीकारितं वर्तते। प्रहरिणः केन्द्रीयानुसन्धान निकायेन विहितस्य अनुसन्धान प्रतिवेदन परामर्शनस्य आधारेण सर्वकारीयाधिवक्त्रा प्रकरणमिदं पञ्जीकारितं वर्तते। सर्वकारीय लेख्य प्रपत्र हस्ताक्षरणे कृत्रिमे विधाय सर्वकारीय भूमेः व्यक्तिनामनामसु पञ्जीकरणस्य अभियोगेन 90+102 जनान् प्रतिवादिनो निर्धार्य प्रकरणमेतत् पञ्जीकारितमस्ति। पञ्जीकारित न्यायिक प्रकरणानां जनानां मध्ये 52 जनाः भूम्यधिग्रहणस्य प्रयोजनाय प्रतिवादिनो निर्धारिताः सन्ति। सर्वकारीयाधिवक्त्रा सर्वकारीय हस्ताक्षरलेख प्रपत्रयोः कृत्रिमीकरणस्य अपराधे दृष्टसंलग्नानां जनानां विरुद्धे वर्षावधेः कारावासदण्डाभियाचनम् अभियाचितं वर्तते। सर्वकार्याधिकारिणां मन्त्रिणां च कृते वर्षद्वयस्य कारावासदण्डनम् अभियाचितम् अस्ति। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड भाषते कृषि उत्पादने क्रान्तेः अभावं यावद् राष्ट्रस्य परिवर्तनं न सम्भवति। पेरिस डाँडावर्तिनी दलस्य केन्द्रीय कार्यालये हरित प्राकृतिक कृषि अभियानेन आयोजितायाः केन्द्रीय कार्यशाला गोष्ठ्याः उद्घाटन कार्यक्रमे ह्य प्रधानमन्त्री प्रचण्डः अगदत् कृषि उत्पादने क्रान्तिकारी परिवर्तनस्य अप्रवर्तनं यावत् देशे परिवर्तनं न सम्भवति। तदवसरे माओवादी केन्द्रस्य महासचिवः देवप्रसाद गुरूङ अवोचत् हरित कृषि अभियानं देशव्यापी विधातुं दलेन विशेष विशेष आग्रेसरता प्रदर्श्यते। यैव नेकपा माओवादी केन्द्रस्य निकटस्य नेपाल बुद्धिजीवी संगठनस्य तृतीयं पूर्णोपवेशं सम्बोधयन् प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड अवोचत् पश्चात्तन समय सर्वकारेण विहितेभ्य शोभन कार्येभ्य काश्चन व्यक्तयो विहिता सन्तीति हेतोः दलस्य सर्वकारस्य गठबन्धनस्य च विरुद्धे भ्रमं विस्तार्य सञ्चलन्त्यः सन्ति। प्रधान न्यायाधीश विश्वम्भर प्रसाद श्रेष्ठ कथयति न्यायस्य उपभोक्तृभ्यः शीघ्रं सहजरूपेण च न्यायप्रदानस्य उद्देश्येन अद्यतः श्रवण प्रस्तुत्यै दिन निर्धारणाय स्वचालित प्रणाली क्रियान्विता वर्तते। सांविधानिक न्यायिक पत्रकार मञ्चेन नवनियुक्ताय प्रधान न्यायाधीशाय श्रेष्ठाय वर्धापन शुभकामनां ज्ञापयितुं ह काष्ठमण्डपे आयोजिते कार्यक्रमे प्रधान न्यायाधीशः श्रेष्ठ अद्यतः प्रणालीयं क्रियान्वयमाना स्थिति असूचयत। प्रविधिरसौ सर्वोच्च न्यायालयस्य सूचना प्रविधि शाखया निर्मितो स्थिति ज्ञापयन् असौ अवोचत् अस्य प्रयोगे सफले सम्भूते न्याय सम्पादनाय सर्वेभ्यः लाभो भविष्यति। प्रधान न्यायाधीशः श्रेष्ठ न्यायाधीशानां नियुक्ति प्रक्रिया यथाशीघ्रम् अग्रे वर्धयितुम् आत्मना प्रवर्तितमस्तीति भासमानः सक्षमान् न्यायाधीशान् नियोज्य न्यायालयं प्रति जनस्थायः वर्धनाय कार्यं विधीयते इति प्रतिबद्धतां व्यक्तवान्। उपप्रधान गृहमन्त्री नारायण काली श्रेष्ठ कथयति सेवा प्रवाहे जनतायम् अनावश्यक कष्टदायकं विलम्बनकारी च कार्यं सर्वकाराय सह्यं न भवति। पर्सा जनपद प्रशासन कार्यालयस्य नवनिर्मितं भवनं पूर्वेद्युः उद्घाटयन् उपप्रधानमन्त्री श्रेष्ठः अवोचत् नियमित प्रक्रियया विधातव्याय कार्याय अधुनापि जनतया प्रभावद्भावनस्य उच्च उत्कोच प्रदानस्य च अवस्था विद्यते एव। राष्ट्रिय राजनीतिकं परिवर्तनं सम्भूतं सदपि एतद् अनुभवितुं जनतया शक्तं नास्तीति चर्चयन् असौ जनतया परिवर्तनस्य अनुभवनत्वेन कार्याणि सम्पादयितुं कर्मचारिणो निरदिशत। भ्रष्टाचारस्य विपुलकाण्डानि अनुसन्धाय सर्वकारेण प्रारब्धं सुशासनस्य अभियानं सहयोक्तुं सर्वान् पक्षान् अनुरुन्धानः उपप्रधानमन्त्री श्रेष्ठ विभिन्नानां बाधावरोधनानां वैपरीत्येन सर्वकारेण भ्रष्टाचारस्य पत्रसञ्चयिनीः अनुसन्धाय कार्यमिदं निष्कर्षं प्रापय्य च दोषिणो वैधानिक परिदौ आनेष्यन्ते वेति प्रतिबद्धताम् अभिव्यनक। वर्षा जनपद प्रशासन कार्यालयस्य नवनिर्मितं भवनं योगतः षण्णां कोटीणां त्रिपञ्चाशत लक्षाणां च रूप्यकाणां व्ययेन निर्मितं वर्तते। इति समाचाराः।